अथ श्री तुलसी महात्म्यम्। पापानि यानि रविसूनुपटस्थितानि गोब्रह्म बाल पितृमातृवधादिकानि नश्यन्ति तानि तुलसीवन दर्शनेन गोकोटिदान सदृशं फलमाप्नुवन्ते। पुष्कराद्यानि तीर्थानि गंगाद्याः सरितस्तथा वासुदेवादयो देवा वसन्ति तुलसीवने। तुलसीकाननं यत्र यत्र पद्मवनानि च वसन्ति वैष्णवा यत्र तत्र सन्निहितो हरिः। यन्मूले सर्वतीर्थानि यन्मध्ये सर्वदेवताः यदग्रे सर्ववेदाश्च तुलसीत्वां नमाम्यहम्। तुलसीश्रीसखि शुभे पापहारिणि पुण्यदे। नमस्ते नारदनुते नारायणमनःप्रिये। राजद्वारे सभामध्ये संग्रामे शत्रुपीडने तुलसीस्मरणं कुर्यात् सर्वत्र विजयी भवेत्। तुलस्यमृतजन्मासि सदा त्वं केशवप्रिये। केशवार्थे चिनोमि त्वां वरदा भवशोभने। मोक्षैकहेतोर्धरणीधरस्य विष्णोः समस्तस्य गुरोः प्रियस्य आराधनार्थं पुरुषोत्तमस्य छिन्देदलं ते तुलसीक्षमस्व। कृष्यारम्भे तथा पुण्ये विवाहे चार्थसङ्ग्रहे सर्वकार्येषु सिद्ध्यर्थं प्रस्थाने तुलसीं स्मरेत्। यस्मरेत् तुलसीं सीतां रामं सौमित्रिणा सह विनिर्जित्य रिपून् सर्वान् पुनरायाति कार्यकृत। या दृष्टा निखिलाघसङ्घशमनी स्पृष्टा वपुः पावनी रोगाणामभिवन्दिता निरसनी सिक्तान्तकत्रासिनी प्रत्यासत्तिविधायिनी भगवतः कृष्णस्य संरोपिता न्यस्ता तच्चरणे विमुक्तिफलदा तस्यै तुलस्यै नमः। खादन्मांसं पिबन्मद्यं सङ्गच्छन्नन्त्यजादिभिः सद्यो भवति पूतात्मा कर्णयोस्तुलसीं धरन्। चतुःकर्णे मुखे चैकं नाभावेकं तथैव च शिरस्येकं तथा प्रोक्तं तीर्थे त्रयमुदाहृतम्। अन्नोपरि तथा पञ्चभोजनान्ते दलत्रयम्। एवं श्रीतुलसी ग्राह्या अष्टादशदला सदा। इति श्रीतुलसीमाहात्म्यम्।